सर्वेभ्यो नमः, स्वागतम्। प्रथमतया वयं प्रार्थनां वदामः। लक्ष्मी भगिनी,
आं भगिनि। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्तिः शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः।
धन्यवादः लक्ष्मी भगिनी। अस्तु, प्रथमतया वयं गृहपाठः नासीत्, तदर्थं किञ्चित् आत्मनेपदी अपि परस्मैपदी क्रियापदानां किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छामः। अस्तु, इदानीम् अत्र लट्लकारस्य वयं कृतवन्तः किल, अन्ते आत्मनेपदि क्रियापदानां कः किं भवति, मोदते मोदेते मोदन्ते इति, तदर्थं किञ्चित् लट्लकारे अभ्यासं कृत्वा लोट्लकारं कुर्मः। अस्तु, कः प्रथमं करोति?
अहं करामि, अहं करोमि।
अस्तु, मोदते इत्यस्य करोतु महोदय। मोदते
मोदते मोदेते मोदन्ते मोदसे मोदेथे मोदध्वे मोदे मोदावहे मोदामहे।
समीचीनम्। अस्तु, इदानीम् अनन्तरं
भगिनी, द सेकेण्ड् वन् मोदेथे इन् योर् टेब्लेट् फार्म्
क्षम्यताम्। अस्तु, मोदते मोदेते मोदते। अस्तु, अस्तु, इदानीं रमते इति चित्रा भगिनी।
रमते रमेते रमन्ते, रमसे रमेथे रमध्वे, रमे रमावहे रमामहे।
अनन्तरं लक्ष्मी भगिनी, ईक्षते
ईक्षते ईक्षेते ईक्षन्ते ईक्षसे ईक्षेत्थे ईक्षत्वे ईक्षे ईक्षावहे ईक्षामहे।
समीचीनम्। इदानीं प्रिया भगिनी, कामयते
कामयते कामयेते कामयन्ते कामयस्य कामयेथे कामयेथे कामयत्वे कामये कामयावहे कामयामहे।
समीचीनं भगिनि। अस्तु, अनन्तरं राधा भगिनी, प्रार्थयते
प्रार्थयते प्रार्थयेते प्रार्थयते प्रार्थयेते प्रार्थयन्ते प्रार्थयसे प्रार्थयेते प्रार्थयध्वे प्रार्थये प्रार्थयावहे प्रार्थयामहे.
समीचीनम्. अनन्तरं शीला भगिनी मृगयते.
मृदयते
मृगयते
मृगयते इत्युक्ते किं भगिनि?
वाण्डर्
वाण्डर् मृगयते मृगयेते मृगयन्ते मृगसे मृगेथे मृगध्वे मृगे मृगावहे मृगामहे.
तत्र
भगिनि ऐ डोण्ट् थिंक दट् वास् आल् करेक्ट्.
आम् आम् तत्र किं भवति चेत् भगिनि तत्र मृगयते मृगयेते मृगयन्ते मृगयसे मृगयेथे मृगयध्वे मृगये मृगयावहे मृगयामहे इति भवति. अस्तु अस्तु. अनन्तरं नागेन्द्रमहोदय निरीक्षते
निरीक्षते निरीक्षेते निरीक्षन्ते निरीक्षसे निरीक्षेथे निरीक्षध्वे निरीक्षे निरीक्षावहे निरीक्षामहे.
निरीक्षे और निरीक्षये
निरीक्षे
निरीक्षे.
अस्तु समीचीनं महोदय. अनन्तरं चित्रा भगिनी आलोकते
आलोकते आलोकेते आलोकन्ते आलोकसे आलोकथे आलोकध्वे आलोके आलोकावहे आलोकामहे.
भगिनी आलोकेते
समीचीनम्.
अस्तु अनन्तरं लक्ष्मी भगिनी स्मयते
स्मयते स्मयेते स्मयन्ते स्मयसे स्मयेथे समत्वे समे स्मयामहे स्मयामहे.
स्मयते स्मयेते स्मयन्ते स्मयसे स्मयेथे स्मत्वे स्मये स्मयावहे स्मयामहे. अनन्तरं भाषते प्रिया भगिनी
भाषते भाषेथे भाषन्ते भाषसे भाषेथे भाषध्वे भाषे भाषावहे भाषामहे.
समीचीनम्. इदानीं राधा भगिनी विद्यते
विद्यते विद्येते विद्यन्ते विद्यसे विद्येते विद्यत्वे विद्ये विद्यावहे विद्यामहे.
समीचीनम्. अस्तु कम्पते राधा भगिनी
कम्पते कम्पेते कम्पन्ते कम्पसे कम्पेते कम्पत्वे कम्पे कम्पावहे कम्पामहे.
समीचीनं. शीला भगिनी लज्जते
लज्जते लज्जेथे लज्जन्ते लज्जसे लज्जेथे लज्जध्वे लज्जे लज्जावहे लज्जामहे.
समीचीनम्. अस्तु अनन्तरं अस्तु तदेव कुर्मः. इदानीं लोट्लकारं कुर्मः. इदानीं जायते इति नागेन्द्रमहोदय
जायतां जायेतां जायन्तां जायस्व जायेथां जायध्वं जायै ज्यावहै ज्यामहे
जायते इति क्रियापदमस्ति जायतां जायेतां जायन्तां जायस्व जायेथां जायध्वं जायै जायावहै जायामहै इति भवति अस्तु अनन्तरम् इदानीं चित्रा भगिनी भवत्याः क्रियापदमस्ति प्रकाशते
प्रकाशतां प्रकाशेतां प्रकाशन्तां प्रकाशस्व प्रकाशेतां प्रकाशध्वं प्रकाशे प्रकाशावहै प्रकाशामहे
समीचीनं भगिनी अस्तु इदानीं लक्ष्मी भगिनी भवत्याः क्रियापदमस्ति मन्यते
मन्यतां मन्येतां मन्यन्तां मन्यस्व मन्या मन्येतां मन्यन्त्वं मन्ये मन्यावहै मन्यामहै
समीचीनम् अनन्तरं स्विद्यते इति प्रिया भगिनी
शुध्यते शुध्यतां शुध्येतां शुध्यन्तां शुध्यस्व शुध्येतां शुध्यध्वं शुध्यै शुध्यावहै शुध्यामहै
समीचीन भगिनि
भगिनी इत्युक्ते किं शुध्यते
किं भगिनि इत्युक्ते किम् इति वा शुध्यते इत्युक्ते स्वेट् अथवा बि डिस्टर्ब्ड् तदर्थं स्वेट् be disturbed astu anantaram priya bhagini palayate
पालयते पालयतां पालयेतां पालयन्तां पालयस्व पालयेतां पालयध्वं पालयै पालयावहै पालयामहै
अनन्तरं राधा भगिनी भवत्याः सहते
सहते सहतां सहेतां सहन्ताम् सहस्व सहेतां सहध्वं सहै सहावहै सहामहै
समीचीनम् अनन्तरं सेवते इति शीला भगिनी
सेवते सेवतां सेवेतां सेवन्तां सेवस्व सेवेतां सेवध्वम् सेवै सेवामह सेवावहै सेवामहै
समीचीनं
सेवै इत्युक्ते किं भगिनि सेवते
कः जानाति
टु सर्व् सेवा करणं
observe atva wait or attend upon. Anantaram idanim kriya padanam abhyasam etadev idanim गतवर्गे वयं सङ्ख्याः विषये पठितवन्तः, परन्तु सर्वे न आगतवन्तः. तदर्थम् अद्य सङ्ख्यां पठित्वा समयः अस्ति चेत् अग्रे गच्छामः. अस्तु, एकनिमिषः. दृश्यते वा? इदानीं एकतः दशपर्यन्तं सर्वे जानन्ति किल?
आं भगिनि.
विंशतिपर्यन्तम्
अपि जानन्ति.
अपि जानाति. कः त्रिंशत् पर्यन्तं जानाति? अस्तु अस्तु राधा भगिनी, अस्तु भवती कति पर्यन्तं भवती जानाति?
कति पर्यन्तम् अहम् एकं वारं पूर्वं प्राक्टिस् करोमि. किं स्मरति अहं न जानामि.
अस्तु, कः राधा भगिनी कृतवती, परन्तु कः अथवा का अन्यः अभ्यासं कृतवान् अथवा कृतवती? वयम् अभ्यासपुस्तके कृतवन्तः. अस्तु, चिन्ता मास्तु, अद्य कुर्मः. अस्तु, सर्वे विंशतिपर्यन्तं जानाति जानन्ति किल?
आं भगिनि.
अस्तु, इदानीं पठामः एकतः दशपर्यन्तं. नागेन्द्रमहोदय.
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश.
समीचीनम्. अनन्तरं चित्रा भगिनि.
Yes, which one? 11th, no? एकादश, द्वादश, त्रयोदश, चतुर्दश, पञ्चदश, षोडश, सप्तदश, अष्टादश, नवदश, विंशति.
समीचीनम्. इदानीम् एकविंशतितः त्रिंशत् पर्यन्तं लक्ष्मी भगिनि.
एकविंशतिः, द्वाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, पञ्चविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः, नवविंशतिः, त्रिंशत्.
त्रिंशत्, समीचीनम्.
एकनिमिषं भगिनि, षड्विंशतिः नास्ति किल? षडीविंशति.
आं भगिनि, भवती एव गतवर्गे अपि पृष्टवती. अहं
षड्विंशति.
तत्र
व इत्यस्य इकारः अपि विंशतिः. तदेव.
सो भगिनि, रैट् आन्सर् इस् षड् विंशति.
षड्विंशतिः.
इदानीं पुस्तके लिखतु, तदा भवती जानाति. अस्तु, अनन्तरं लक्ष्मी भगिनी, भवती न प्रिया भगिनी, भवती एकत्रिंशतः चत्वारिंशत् पर्यन्तं पठतु.
एकत्रिंशत् द्वात्रिंशत् त्रयत्रिंशत् चतुस्त्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट् त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत्.
समीचीनम्
भगिनी. वट् इस् द डिफ्रेन्स् आफ् त्रयस्त्रिंशत् सा एण्ड् देन् षट् त्रिंशत्
चतुस् त्रयस् एण्ड् चतुस् एकम्
आम् चतुस्त्रिंशत् भवत्याः प्रश्नः किमासीत् भगिनि पुनः?
प्रश्नः न भगिनि, प्रोनौन्सियेशन् ऐ वास् आस्किङ्ग्. इट्स् वित् द सा एण्ड् देन् विदौट् सा, इट् लुक्स् सिमिलर्.
अष्टात्रिंशत् त्रयस्त्रिंशत् इदानीं राधा भगिनी, भवती एकचत्वारिंशतः पञ्चाशत् पर्यन्तं वदतु.
एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुर्चत्वारिंशत् पञ्चचत्वारिंशत् चतुश्चत्वारिंशत् रैट् भगिनि?
आम्.
पञ्चचत्वारिंशत् षट् चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत्.
समीचीनम्
भगिनि. हौ डु यु ऐडेण्टिफै द डिफ्रेन्स् बिट्वीन् द र एण्ड् द हाफ् वेन् ऐ एम् लुकिङ्ग् बेक् एट् द त्रयस् त्रिंशत् इट् आल्मोस्ट् लुक्स् लैक् अ र टु मी.
तत्र सकारः अस्ति अत्र.
Right. And if you look at like the other numbers like 45, 44, it's the same
way that is also written. Parantu sa nasti tatra. Sakarah nasti.
Pardon me? I didn't hear that.
Sakarah nasti tatra.
Yeah, I'm just, is it just that because you know that it is not
tatra
there?
Tatra sa iti asti. Anta tra iti अद अस्ति त्रयस्त्रिंशत् इति. तत्र अस्तु
no, begin you just write the sir, just a letter sir, and just half a letter, half a sir, then you'll know the difference how it's coming.
Atra ekah eva asti, atra sri iti bhavati. It is to atra nikitum shaknomi va na vaiti aham na janam.
It's okay, Bhagini. I think I just have to get used to how those letters.
You know, the line in the sa connected to the line and the sha, it is the sha that separately.
Yeah, Bhagini, the second one, is it okay to, when we write, can we write it like this, separated?
Yes.
Not ra, ra, sa.
Yeah.
Okay, thank you, Bhagini.
कस्य पर्यायः राजा भगिनी भवती उक्तवती वा अस्तु शीला भगिनी भवती उक्तवती वा
न भगिनि
अस्तु भवती वा वदतु पञ्चाशत्तः षष्टिः पर्यन्तं किल
एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट् पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्ठिः
समीचीनम् अस्तु इदानीं एकषष्टितः सप्ततिः पर्यन्तं चित्रा भगिनी
एकषष्टिः द्विषष्टिः त्रिषष्टिः चतुष्षष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः
अनन्तरं सप्ततितः अशीतिः पर्यन्तं नागेन्द्र महोदय
एकसप्तति द्विसप्तति त्रिसप्तति चतुस्सप्तति पञ्चसप्तति षट्सप्तति सप्तसप्तति अष्टसप्तति नवसप्तति अशीति
समीचीनम् अनन्तरं एकाशीतितः नवतिः पर्यन्तं लक्ष्मी भगिनी
एकाशीतिः द्वशीतिः
अशीतिः
त्र्यशीतिः चतुर्शीतिः पञ्चाशीतिः षट्शीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः
चतुर्शीतिः और चतुरशीतिः भगिनि
चतुरशीतिः
चतुर ओके
इट् इस् चतुर्सप्तति और चतुस्सप्तति
सप्ततिः
इदानीं
चतुरशीतिः
एकम् अभ्यासं कुर्मः परन्तु पुस्तकं न पश्यन्तु अस्तु
भगिनी भवत्याः ध्वनिः न्यूनः अस्ति
इदानीं भगिनि
इदानीं श्रूयते
अस्तु अत्र अस्ति अस्तु अत्र सङ्ख्याः सन्ति तत्र सङ्ख्याः किम् इति तत्र टु इति अस्ति द्वे वा द्वि वा द्वा वा किमस्ति
द्वे
अस्तु इदानीं ट्वेल्व् किमस्ति द्वादश अनन्तरं अत्र द्वादश
द्वाविंशतिः
अनन्तरं
द्वात्रिंशत्
द्विपञ्चाशत्
द्विनवतिः
समीचीनम् अस्तु इदानीम् एकनिमिष
त्रयोदश
त्रयोविंशतिः
त्रयोचत्वारिंशत्
त्रयो पञ्चाशत् इस् डिफ्रेण्ट् भगिनी त्रिचत्वारिंशत्
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 अनन्तरं त्र्यशीतिः इति उक्तवन्तः
त्र्यशीतिः त्रिनवतिः Okay, so the mistake we made was we the first three were trayo, so we decided that everything else will be trayo. So that's where we made the mistake.
Parantu trayas trimshat iti agatam.
The first two were trayo, so we kind of followed the same for a thing. Okay. This one, everything is different. Tri chattvarimshat, tri panchashat.
अस्तु अनन्तरम् इदानीं 24
चतुर्विंशतिः
अनन्तरं
चतुस्त्रिंशत् चतुश्चत्वारिंशत् चतुष्पञ्चाशत्
चतुश्चत्वारिंशत्
चतुश्चत्वारिंशत्
अनन्तरं
चतुष्षष्टिः अगेन् द मिडिल् वन् चतुष्षष्टिः
समीचीनं
चतुष्षष्टिः चतुष्षष्टिः न चतुः षष्टिः
न चतुः षष्टिः न चतुष्षष्टिः
चतुष्षष्टिः
चतुस्सप्ततिः चतुरशीतिः सेकेण्ड् वन् षोडश
अनन्तरं
षड्विंशति
समीचीनम् अनन्तरं
षट्षष्टिः
So, Bhagini, for 2026, they both are incorrect.
Haan, 66, both are incorrect, na?
Shad Shashti, right?
Shad Shashti, the...
Shad Bhi.
No, Shad Shashti.
Anantaram,
Shad Shashti. 66, Bhagini.
No, 26, I'm asking.
The second one.
Shad Shashti.
No, Bhagini, 26, I'm asking.
षड्विंशति
सो वी डिसैडेड् षड् विंशतिः राट् नट् षडि विंशतिः
भगिनी यु आस्क् मी टु करेक्ट् अण्ड् सेड् इट्स् नाट् षडि
राट्
सो बोत् आप्शन् आर् इन्करेक्ट् हियर्
षड्विंशति षट्षष्टिः षट्षीतिः षडशीतिः नाट् षट् षण्वतिः षण्णवतिः षण्णवतिः ओ इट् बि षण्णवति न षण्णवतिः षण्णवतिः अष्टादश
अष्टादश सेकेण्ड् वन्
अष्टादश अष्टाविंशति
अष्टा लाङ्ग् सौण्ड् फस्ट् वन्
फस्ट् वन् देन् अष्टात्रिंशत्
समीचीनम्
अष्टात्रिंशत् अष्टसप्ततिः
समीचीनम्
अष्टाशीतिः
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा
अस्तु इट्स् सम्थिङ्ग् कन्फ्यूसिङ्ग् इट् डज़न्ट् फालो द सेम् इन् ईच् सैड् न त्रयोविंशति डजन्ट् मीन्स् इट् आर् चतुर्विंशति सो इट् चेञ्जस् इन् एव्री थिङ्ग्
अस्तु इदानीं वयं एतत् अभ्यासमपि वयं कृतवन्तः गतवर्गे अस्तु प्रथमतया एतां कुर्मः अस्तु अत्र किमस्ति
69 + 11 योग एकादश how what is called it equals to is what is in Sanskrit Bhagini?
अस्ति
नवषष्टिः प्लस् एका एकादश नवषष्टिः एटि इस्
अशीतिः
76
योग त्रयोविंशतिः
किमस्ति
नवनवति
अस्तु अनन्तरं
अष्टपञ्चाशत् योग पञ्चत्रिंशत्
समीचीनं किमस्ति
त्रिनवतिः नवविंशति पञ्चचत्वारिंशत्
चतुःसप्ततिः
किमस्ति
चतुःसप्ततिः
अनन्तरं
पञ्चविंशतिः योग सप्तविंशतिः सप्त एकसप्ततिः यो 86
षडशीतिः षडशीतिः
नो दट् इस् 25 न द फर्स्ट् वन् ओर् वन्
15 प्लस् 71
ओ ऐ थाट् वास् 20
सो इट्स् षडशीतिः 86
अनन्तरं
चत्वारिंशत् योग एकत्रिंशत्
एकसप्ततिः एकसप्ततिः 71
समीचीनम् अनन्तरं
चतुस्त्रिंशत् चतुस्त्रिंशत् योग पञ्चपञ्चाशत् नवाशीतिः लाङ्ग् साण्ड् नवाशीतिः
अशीतिः
अनन्तरम्
83 त्रयशीतिः एण्ड् 12
द्वादश
पञ्चनवतिः
एकनवतिः
नव
Oh, that's 91, right?
91 plus
9. Eka navati yoga.
Yoga nava. Nava. Shatam.
Very good practice, Bhagini.
इदानीम् अभ्यासं कुर्मः. अस्तु. कति सन्ति इति लिखन्तु यथा.
Which page number, Bhagini? This one?
No, this is in another book.
Okay. Yeah, I don't see it on 58.
No, 58 has the...
something similar, but not exactly the same one.
Yadi bhavanta ichanti etas krita...
We can practice both, Bhagini.
Asta. तत्र देर् इस् द्वौ हस्तौ अस्ति एक्साम्पल् इन् बोत्
एकः शिरः और् एकं शिरः
शिरः इस् मास्क्युलैन् सो एकः
एकः ओके
अभ्यासपुस्तके कृतवन्तः
अस्तु
अनन्तरम् एकः शिरः अनन्तरं
दश अङ्गुल्यः अङ्गुल्यः एकं मुखम् एका पत्रिका
एकं
फलानि
त्रीणि फलानि चत्वारि व्यञ्जनानि पाञ्चालिकाः
पञ्चः और् पञ्च
पञ्च
इट्स् नाट् पाञ्चालिका इस् नाट्
पाञ्चालिका
From 5 onwards, no change in the number.
Oh, I thought 1 to 5 had changes.
1 to 4
had. 1 to 4.
Oh, only 1 to 4. Oh, okay, okay.
74. Chatusaptatihi. Panasafalani.
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 Ashiti.
अशीतिः छात्रा त्रिचित्राणि पञ्चाशत् शिक्षिकाः 86 षडशीतिः द्रोण्यः अष्टाशीतिः वानराः अष्टाशीतिः वानराः 94 विल् बि चतुर्नवति विद्युद्दीपाः
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 अनन्तरम्
षड्विंशति दिवसाः अष्टाविंशति करवस्त्राणि
द्वात्रिंशत्
दन्ताः
त्रयस्त्रिंशत्
स्तम्भाः चतुस्त्रिंशत् सोपानानि
अष्टत्रिंशत् ग्रन्थाः
अष्टात्रिंशत् ग्रन्थाः
भगिनि
द्विचत्वारिंशत् लेखन्य
लेखन्यः
चतुश्चत्वारिंशत् घटाः
चतुश्चत्वारिंशत्
चमसाः अष्टपञ्चाशत् चषकाः चषका 64 चतुष्षष्टिः इष्टिकाः इष्टिका इत्युक्ते किं
ब्रिक्स्
ओ ब्रिक्स् ओ ईट् ओके इष्टिका 72 द्विसप्तति नारङ्गफलानि चतुस्सप्ततिः जम्बीराणि 81 एकाशीतिः स्थालिकाः त्रयशीतिः दर्पणाः चतुर्शीतिः दीपाः सप्तति व्याघ्राः 70 न सप्ततिः व्याघ्राः दश तितीलिकाः द्वाविंशति लोकयानानि
अस्तु
प्रश्नाः सन्ति वा अत्र अस्तु प्रश्नाः न सन्ति चेत् अस्तु शीघ्रतया अत्र किम् अभ्यासमस्ति तत् अत्र वयं गतवर्गे वयं ज्ञानवर्तिनीं पठितवन्तः परन्तु अद्य एकवारं पुनः पठामः अस्तु कः अथवा का श्लोकं पठति अस्तु तत्र एकः गजः तत् न पठतु
एको रथो गजैश्चैको नराः पञ्च पदातयः त्रयश्च तुरदात्तज्यैः पत्तिरित्यभिधीयते पत्तिं तु त्रिगुणा मेतामाहुः सेनामुखं बुधाः त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते त्रयो गुल्मा गुणो नाम वाहिनी तु गणात्रयः स्मृता स्मृता तिस्तस्त्रस्तु वाहिन्यः कृतनेति विचक्षणैः चमुस्तु पूतना स्थितस्त्री This is real tantra, sir. Putanasti. Trasti. Putanasti. Trasti. अनीकीनिं दशगुणां प्राहुर्क्षौहिणीं बुधाः
कः किमर्थं तत् एको रथो गजश्चैको नराः पञ्चपदातयः त्रयश्चतुरकात यज्ञे पति इत्यपि दीयते. किमर्थम् एकः गजः गजश्चेको एकः रथः अपि एकः गजः अपि पञ्च पदातयः नराः इत्युक्ते फुट्मेन् अपि अनन्तरं त्रीणि अश्वाः
horses, three horses.
एकः पत्तिः अस्ति.
पत्तिः one elephant, one chariot, five foot soldiers, three horses and one group. All this make into one group.
One pattihi.
One group.
Name is called pattihi.
Pattihi. Oh. One.
Hey, Bhagini, where is the ashwa in the word trayashcha? Is that ashwa or?
No, trayashcha turaga.
Oh, turaga. Oh my God.
Atra. Ek nimsha.
So, turaga is a synonym for ashwa?
Turaga. Take it like this, since it's hard texting. Atra. Ekaha gajahasti. Ekaha ratahasti. No. एकः ग्रूप् इति अस्ति. तत्र एकः गजः, एकः रथः, पञ्चपदातेनरः अपि त्रीणि अश्वाः सन्ति. अस्तु, तस्य नाम पत्तिः. अस्तु, इदानीं तत्र त्रीणि एतत् समानं त्रीणि सन्ति चेत् तत् तस्य नाम एतत् दिस् बिकम्स् अनदर् ग्रूप्. तस्य नाम भवति सेना. अस्तु, एतत् समानं त्रीणि सेनामुखानि सन्ति चेत्
गुल्मः
गुल्मः भवति. एतत् समानं त्रीणि गुल्माः सन्ति चेत् एकः गणः. त्रीणि गणाः सन्ति चेत्
वाहिनी.
ऐम् रनिङ्ग् औट् आफ् कलर्स्. वाहिनी. त्रीणि वाहिन्यः सन्ति चेत् एकप्रतना. अस्तु, अनन्तरं त्रीणि
प्रतनाः चमुः.
अनन्तरं
त्रीणि चमवः.
त्रीणि चम्वः सन्ति चेत्
अनेकिनीम्.
अस्तु,
अनेकिन्यः.
अनन्तरं दश.
दश अनेकिन्यः.
अक्षौहिणी.
वन् अक्षौहिणी.
एतत्
अक्षौहिणी.
एका अक्षौहिणी भवति. अस्तु, तत्र एकः अत्र अश्वः रथः अपि अस्ति तत्र. अस्तु, अत्र प्रश्नाः सन्ति वा?
And then महाभारत, how many of them were भगिनी on a महाभारत?
युधिष्ठिरस्य पक्षः सप्त इति चिन्तयामि, अपि दुर्योधनस्य पक्षः एकादश. Api.
Was that part of the army he borrowed from Krishna, Bhagini?
Ekadasha Akshauhini, tatra Duryodhanasya.
Ha.
तत्र आसीत्। अस्तु अनन्तरम् इदानीं तत्र ये कस्याम् अक्षौहिण्यां कति सन्ति एकनिमिष
one more time bhagini, what's the question?
Tatra e kasyam akshauhinyam
kati
gajaha santi
21870
ha 870 tatra ekavimshati sahasram ashtashatam adhika saptatih gajaha apirataah अनन्तरं पञ्चषष्टिः सहस्रदशाधिकषट्शतम् अश्वाः अनन्तरं एककोटि अधिकनवसहस्रपञ्चाशदधिकत्रिशतं
पदादयश्च भवति।
अस्तु अत्र प्रश्नाः सन्ति वा सङ्ख्यायाः विषये? समयः अस्ति चेत् सङ्ख्यां कण्ठस्थीकरणं कृत्वा आगच्छन्तु। अहं यदा अहम् ईमेल् प्रेषयामि तत्र अहम् एकं हेण्ड् औट् प्रेषयामि। यदि भवन्तः तं पश्यन्ति कण्ठस्थीकरणार्थं सुलभः भवति। अस्तु
You'll send it today or it's a, in our previous email, Bhagini?
When I send the homework and announcement email, I'll put it in the email and I'll put it in the website.
Okay.
And Apishila Bhagini, aham dvani mudranam kim agatam dvani mudranam aham na janami parantu aham drishtva vadami.
Nagendra Mahoday sent me the link. I haven't checked it yet.
Na aham drishtavati parantu tatra na agatam aham na janami kimartam parantu punaha pashyam. Asu anantar angre gachamah. Asu kriya padasya vibhajya prayoga. Asu पठामः अत्र कः पठति? नागेन्द्रमहोदय भवान् पठतु।
अभ्यासं करोतु। एतानि वाक्यानि सावधानतया पठत अवगच्छत च। कृष्णः अर्जुनम् उपदिशति दिशति कृष्णः अर्जुनस्य उपदेशं करोति। प्रबन्धस्य गीताव्याख्यानं शृण्वन्ति। प्रबन्धज्ञाः गीताव्याख्यानस्य श्रवणं कुर्वन्ति। एवमेव रथं स्थापयति स्थापनं करोति रथस्य स्थापनं करोति। भेरिं वादयति भेर्याः वादनं करोति। हृदयं विदारयति हृदयस्य विदारणं करोति। इन्द्रियाणि प्रेरयन्ति इन्द्रियाणां प्रेरणं कुर्वन्ति। कुरुक्षेत्रं प्रविशति कुरुक्षेत्रस्य प्रवेशं करोति। जयम् उद्घोषयति जयस्य उद्घोषणं करोति।
समीचीनम्। अस्तु इदानीं क्षम्यतां भगिनि वदतु भगिनि।
विभक्य अर्थं किं भगिनि? क्रियापदस्य विभक्यप्रयोगः
कुर्मः तत्र विभज्यप्रयोगः इति अस्ति तत्र तत्र पठति इति अस्ति चेत् विभज्यप्रयोगः कुर्मः चेत् तस्य प्रयोगः कुर्मः चेत् किमपि सः सः एकनिमिषः सः पठनं करोति इति आगच्छति. सः किमपि करोति, सः पठति, सः किमपि करोति. करोति इति आगतं, तत्र पठति इत्यस्य पठनं करोति, अनन्तरं गच्छति इत्यस्य गमनं करोति, अनन्तरं पिबति इत्यस्य पानं करोति इति आगच्छति. अस्तु, तस्य विभज्यप्रयोगः तत्र पठति इति अस्ति चेत् किमपि सः करोति. अस्तु, सः पठति इति पठनं करोति, अनन्तरं अहमत्र लिखितवती. उदाहरणमस्ति, तत्र गच्छति, गमनं करोति. अत्र किमस्ति, तत्र करोति इति तत्र आगच्छति सर्वदा. अत्र करोति, किमपि सः करोति, अपि तस्य पिबत् इत्यस्य समानः अर्थः एव. अस्तु,
विभज्य वर्ड् अर्थं किं भगिनि?
विभाजन
टु ब्रेक्, तदर्थं यो ब्रेकिङ्ग् गच्छति इति गमनम् अपि करोति.
ओके,
अस्तु, तत्र किं भवति, एकनिमिषः, एकवारं प्रिया भगिनी भवती तत्र उदाहरणानि एकवारं पठतु.
गच्छति, गमनं करोति, पिबति, पानं करोति, लिखति, लेखनं करोति, भ्रमति, भ्रमणं करोति, स्नाति, स्नानं करोति.
समीचीनम्, एकनिमिषः, अस्तु, समीचीनम्.
क्रीडति विल् बि क्रीडां करोति न?
क्रीडनं,
क्रीडनं करोति.
अत्र उदाहरणं पश्यामः, उदाहरणं ददामि. अत्र यशोदा कृष्णं पालयति इति अस्ति. अस्तु,
पालनं करोति.
एकनिमिषः, तत्र
कृष्णस्य पालनं करोति.
अपि यशोदा कृष्णस्य पालनं करोति. तत्र वयम् एकं विभक्तिवलरी पुस्तके कृतवन्तः, जानन्ति किल, तत्र विद्युतः किमपि तस्य अनन्तरम् एतत् कृतवान्, तत् कुर्मः. अस्तु, अनन्तरं तत्र अत्र यशोदा इति कर्तृपदमस्ति किल, कृष्णं पालयति, तत्र अत्र कृष्णस्य पालनं
कृष्णं
करोति. अस्तु, अत्र यशोदा इति कर्ता
कर्तृपदम्.
अनन्तरं कृष्णम् इति
कर्मपदं
पदम् अनन्तरं पालयति
पालयति क्रियापदं
क्रिया अनन्तरम् अत्र यशोदा इति कर्तृपदम् अनन्तरं कृष्णस्य इति
कर्मपदं षष्टिविभक्ति
तं षष्टिविभक्तिः पालनं करोति इति विभज्य
क्रियापदं
लिखितं
क्रियापदम्
करोति अस्तु तत्र अत्र कर्ता अर्थ अस्तु एतत् कर्मपदम् एतत् क्रियापदम् अर्थात् कर्तृपदमस्ति कर्तृपदं कर्तृपदं कर्मपदं कर्मपदं परन्तु अत्र कर्मपदस्य षष्टिविभक्ति अत्र प्रथमा विभक्तिः
द्वितीया
विभक्तिः अत्र
प्रथमा षष्टि
षष्टिविभक्तिः अस्तु तदेव अत्र अस्ति तत्र कृष्णस्य पालनं करोति द्वारस्य उद्घाटनं करोमि इति भवति अस्तु एतत् उदाहरणम् एव वयं कुर्मः तत्र उद्घाटयति किं भवति किं
उद्घाटनं करोति
उद्घाटनं
करोति
किमपि अतिथेः
अतिथि सत्कारं करोति
अश्वानां
निबन्धनं करोति
ध्वजस्य
आरोहणं
प्रतिष्ठापनं
करोति
कीर्तेः
अर्जनं करोति
शत्रोः
आह्वानं करोषि
समीचीनम् अत्र अवधेयं पठामः राधा भगिनी
अवधेयं सञ्जयः कर्तृपदं प्रथमा विभक्तिः धृतराष्ट्रं कर्मपदं द्वितीया विभक्ति बोधयति क्रियापदं विपं सञ्जयः कर्तृपदं प्रथमा विभक्ति धृतराष्ट्रस्य कर्मपदं षष्टिविभक्ति बोधनं करोति क्रियापदं विभज्य लिखितम् विभज्य क्रियापदस्य विभागं कृत्वा केन स्क्रोल करिष्यति
आकर्षति
यथा आकर्षति आकर्षणं करोति निवेदयति निवेदनं करोति
समीचीनम् अस्तु इदानीं किञ्चित् तत्र इदानीमेव वयं विभज्यप्रयोगः तस्य उपयोगं न कुर्मः प्रथमतया वयं तस्य तत्र वाक्यः अस्ति चेत् तत्र कथम् अस्ति इति पश्यामः तस्य अनन्तरं वयं कुर्मः अस्तु अत्र षष्टिविभक्तेः किञ्चित् अभ्यासमस्ति तत् अस्तु. ग्रन्थस्य पठनम् अकरोत् इति कृतवान्. अस्तु, अनन्तरं समस्या तस्य षष्टि
समस्यायाः
परिहारं
करोमि. इदानीं लक्ष्मी भगिनी तृतीयं
विद्यालयः विद्यालयस्य उद्घाटनं कुर्मः.
नागेन्द्रमहोदय मित्रं
मित्रस्य आह्वानं करोति.
प्रिया भगिनी
चित्रस्य मण्डनं करोति.
राधा भगिनी
भगिनी वाट् इस् द मीनिङ्ग् चित्रस्य मण्डनं करोति क्रियेट् करोति
किं भगिनि
मण्डनम् इत्युक्ते किं क्रियेट्
डेकोरेशन्
डेकोरेशन् ओके मण्डनं न्यू वर्ड् फर् मी
प्रस्तावमस्य उपस्थापनं करोमि.
समीचीनं. अनन्तरं शीला भगिनी
मुखस्य मुखं रैट् मुखस्य अलङ्करणं करोषि. अलङ्करणं करोषि. वाट् इस् देट् मीन् भगिनि
Decorate
the face. Mukham is a face.
Bhagini, for number 6, the prastavam, it is prastavasya?
Yes, prastavasya. Napunsaka linga, right?
Napunsaka, yeah.
Prastavasya.
Thank you. Thank you.
Anantaram?
Bhasa.
What is for mouth in Sanskrit, Bhagini?
Kaha janati?
Jihwa is tongue,
I guess.
Tongue is asti. Parantu? मौत् इति किं भवति भवन्तः जानन्ति न, परन्तु तस्य अर्थः टङ्ग् इति न जानन्ति तावदेव. मुखं
मुखं
आम्, परन्तु मौत् इति अपि अस्ति.
Oh, okay. But I got confused that Mukham, I thought was
face
mouth.
Face and mouth both, right, Bhagini? Mukham?
Same spelling also, right, Bhagini?
Okay.
So based on the context of the sentence, we have to understand which it is.
Good question, Priya.
प्रदर्शनं
प्रदर्शिन्याः आयोजनं करोति.
अर्थं किं भगिनि
Science exhibition.
Arranging, is it? Ayojanam?
or doing ayojanam means arrange.
तत्र किमपि कर्तृपदं योजयन्तु.
अहं पाठस्य पाठस्य वाचनं करोमि.
अहं कृष्णफलकस्य मार्जनं करोमि. सः तत्र
सः
करोति इति अस्ति.
सः
कृष्णफलकस्य
मार्जनं करोति.
इतिहासस्य
लेखनं
कुर्मः. वयम् इतिहासस्य लेखनं कुर्मः. देवाः
पूजनं कुर्वन्ति.
देवाः पूजनं
ते 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 देव
भगिनी
देवा
ट्राइंग टू गो द अदर वे. सो इतिहासः इतिहासम् इतिहासः लेखामि. इफ यू वांट टू डू द अदर वे
वयम् इतिहा
लेखामः
लिखामः लिखति इत्यस्य तावदेव. अस्तु अनन्तरं
ते पूजनं कुर्वन्ति. देवाः वाट् इस् द षष्ठी आफ् देवाः.
देवतानां
ते देवतानां पूजनं कुर्वन्ति.
देवानां
देवानां नो देवता नो इट् विल् नाट् बी इट् विल् बी देवा देवानां.
बुक् हेज़् अ देवता देवताः.
करोषि
ज्ञानस्य अर्चनं
करोति. अतिथ्याः आह्वानं कुर्वन्ति. यानस्य प्रक्षालनं करोति. अतिथ्यः
अतिथेः
भगिनी अतिथि इस् अ पुल्लिङ्ग.
इस् इट् लैक् हरि भगिनी? अतिथीनां देन्
अतिथेः
नो हरे हरिणां
हरेः
हरेः
एकवचनं
हरेः
कुर्वन्ति. सो इट् शुड् बि अतिथीनां.
नो कुर्वन्ति इस् फोर् द कर्तृपदं. वी हाव् टु पुट् द कर्तृपदं. ते अतिथेः
आह्वानं कुर्वन्ति.
ते अतिथेः कुर्वन्ति.
अतिथेः यानस्य प्रक्षालनं करोति.
वट् इस् दि
सः
यानस्य प्रक्षालनं करोति. यानानां ओके
उद्घोषणं करोमि. किं
योजनाः
योजनानां
समीचीनं. कः करोति अथवा का?
अहं
करोमि.
कार्यक्रमाः
त्वं कार्यक्रमाणां
उद्घाटनं
करोषि.
कार्यक्रमाणाम् उद्घाटनं करोषि.
अस्तु समीचीनम्. अनन्तरं
प्रदर्शनं कुर्वन्ति
प्रतिभानां प्रदर्शनं कुर्वन्ति
प्रतिभायाः. प्रतिभायाः प्रदर्शनं
कुर्वन्ति.
अनन्तरम् अत्र प्रश्नाः सन्ति वा न वा? पुनः अग्रिमवर्गे वयं क्रियापदस्य विवर्ज्यप्रयोगः कुर्मः, सङ्ख्याः अपि किञ्चित् कुर्मः. अस्तु
भगिनि, एकः प्रश्नः अस्ति. आङ्ग्लभाषायाम् एतस्य प्रयोजनं नास्ति.
नास्ति. इदानीं शान्तिमन्त्रं वदामः. प्रिया भगिनि, अपि चिन्तयामि, न जानामि
भगिनि. What is the reason we are doing kriya padasya vivajya bhagini? Is it shashti, just a shashti?
No, tasya rupam asti tadartham.
That's another way of writing the sentence, but we don't have an equivalent one in English language.
Kaha shanti mantram
अहं वदामि. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. हरि ओम् श्री गुरुभ्यो नमः. हरि ओम्.
धन्यवादः भगिनी.